ओम नमो भगवते वासुदेवाय। अथ पञ्चदशोऽध्यायः। नारद उवाच, कर्मनिष्ठा द्विजा, केचित् तपोनिष्ठा नृपापरे। स्वाध्यायेऽन्ये प्रवचने ये केचित् ज्ञानयोगयोः, ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता, दैवे च तद्भावे स्यादितरेभ्यो यथार्हतः। द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा बोधयेत्सु समृद्धोऽपि साध्ये कुर्यान्न विस्तरम्। देशकालोचितश्रद्धाद्रव्यपात्रार्हणानि च सम्यक् भवन्ति नैतानि विस्तरात् स्वजनार्पणात्। देशे काले च सम्प्राप्ते मुन्यन्नम् हरिदैवतम्, श्रद्धया विधिवत्पात्रे न्यस्तम् कामधुगक्षयम्। देवर्षिपितृभूतेभ्य आत्मने स्वजनाय च अन्नम् संविभजन् पश्येत् सर्वम् तत्पुरुषात्मकम्। न दद्यादामि संसाध्य न चाद्याद्धर्मतत्त्ववित्। मुन्यन्यै स्यात्परा प्रीतिर्यथा न पशुहिंसया, नैतादृशपरो धर्मो नृणाम् सद्धर्ममिच्छताम्। न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य यः, एके कर्ममयान् यज्ञान् ज्ञानिनो यज्ञवित्तमाः। आत्मसंयमने नीहा जुह्वति ज्ञानदीपिते, द्रव्ययज्ञैर्यक्ष्यमाणम् दृष्ट्वा भूतानि बिभ्यति। एष माकरुणो हन्याद्दज्ञो यसुतृध्रुवम्, तस्माद्दैवोपपन्नेन मुन्यन्नेनापि धर्मवित्। सन्तुष्टो हरः कुर्यान्नित्यनैमित्तिकीः क्रियाः। विधर्मपरधर्मश्च आभास उपमाछलः, अधर्मशाखाः पञ्चेमा धर्मज्ञो धर्मवत्यजेत्। धर्मबाधो विधर्मस्यात् परधर्मोऽन्यचोदितः, उपधर्मस्तु पाखण्डो दम्भो वा शब्दभिच्छलः। यस्विच्छया कृतः पुम्भिराभासो याश्रमात् पृथक्, स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये। धर्मार्थमपि नेहेत यात्रार्थम् वा धनोधनम्, अनीहानीहमानस्य महाहेरिव वृत्तिदा। सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत्सुखम्, कुतस्तत्कामलोभेन धावतोऽर्थे हयादिशः। सदा सन्तुष्टमनसः सर्वा सुखमयादिशः, शर्कराकण्टकादिभ्यो यथोपानत्पदः शिवम्। सन्तुष्टः केन वा राजन्न वर्तेतापि वारिणा, औपश्च दैव्यकार्पण्याद्विह पालायते जनः। असन्तुष्टस्य विप्रस्य तेजो विद्यातपोयशः, स्रवन्तीन्द्रियलौल्येन ज्ञानम् चैवावकीर्यते। कामस्यान्तम् च क्षुत्रिभ्याम् क्रोधस्यैतत्फलोदयात्। जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः, पण्डिता बहवो राजन् बहुज्ञः संशयच्छिदः। सदसस्पतयोऽप्येके असन्तोषात् पतन्त्यतः, असङ्कल्पाज्जयेत् कामम् क्रोधम् कामविवर्जनात्। अर्थानर्थे क्षया लोभम् भयम् तत्त्वावमर्शनात्। आन्वीक्षिक्या शोकमोहौ दम्भम् महदुपासया, योगान्तरायान्मौनेन हिंसाम् कायाद्यनीहया। कृपया भूतजम् दुःखम् दैवम् दह्यात् समाधिना, आत्मजम् योगवीर्येण निद्राम् सत्त्वनिषेवया, रजस्तमस्य सत्त्वेन सत्त्वम् चोपशमेन च। एतत्सर्वम् गुरौ भक्त्या पुरुषो यञ्जसाजयेत्। यस्य साक्षात् भगवती ज्ञानदीपप्रदे गुरौ, मर्त्या सद्दीसृतम् तस्य सर्वम् कुञ्जरशौचवत्। एष वै भगवान् साक्षात् प्रधानपुरुषेश्वरः, योगेश्वरैर्विमृग्याङ्घ्रिर्लोकोऽयम् मन्यते नरम्। षड्वर्गसंयमैकान्ता सर्वा नियमचोदनाः, तदन्ता यदि नो योगा नावहेयुः समावहाः। यथा वार्तादयो यर्था योगस्यार्थम् न बिभ्रति, अनर्थाय भवेयुस्ते पूर्तमिष्टम् तथा सतः। यश्चित्तविजये यत्त स्यान्निस्सङ्गो परिग्रहः, एको विविक्तशरणो भिक्षुर्भिक्षामिताशनः। देशेषु तौ समे राजन् संस्थाप्यासनमात्मनः, स्थिरम् समम् सुखम् तस्मिन्नासीतर्ज्वङ्गवोमिति। प्राणापानौ सन्निरुन्ध्यात् पूरकुम्भकरे चकैः, यावन्मनस्त्यजेत् कामान् स्वनासाग्रनिरीक्षणः। यतो यतो निःसरति मनः कामहतम् भ्रमत्, ततस्ततो उपहारित्य हृदि रुन्ध्याच्छनैर्बुदः। एवमभ्यसतच्चित्तम् कालेनाल्पीयसायतेः, अनिशम् तस्य निर्वाणम् यात्यनिन्धनवह्निवत्। कामाधिभिरनाविद्धम् प्रशान्ताखिलवृत्ति यत् चित्तम् ब्रह्मसुखस्पृष्टम् नैवोत्तिष्ठेत कर्हिचित्। यः प्रवृज्य गृहात् पूर्वम् त्रिवर्गावपनात् पुनः, यदि सेवेत तान् भिक्षु स वैवान्तास्य पत्रपः। यै स्वदेह स्मृतो नात्मा मर्त्यो विष्कृमिभस्मसात्, तयेनमात्मसात् कृत्वा श्लाघयन्ति यसत्तमाः। गृहस्थस्य क्रियात्यागो व्रतत्यागो वटोरपि, तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता। आश्रमापसदायेते खल्वाश्रम विडम्बकाः, देवमायाविमूढांस्तानुपेक्षेतानुकम्पया। आत्मानम् चेद्विजानीयात् परम् ज्ञानसुताशयः, किमिच्छन् कस्य वा हेतोर्देहम् पुष्णातिलम्पटः। आहु शरीरम रथमिन्द्रियाणि हयानभीषोन्मन इन्द्रियेशम् वर्त्मानि मात्रा दिशणाम् च सूतम् सत्त्वम् बृहद्बन्धुरमीश सृष्टम् अक्षम् दश प्राणमथर्म धर्मौ चक्रेऽभिमानम् रथिनम् च जीवम् धनुर्हितस्य प्रणवम् पठन्ति शरम् तु जीवम् परमेव लक्ष्यम् रागो द्वेषश्च लोभश्च शोकमोहौ भयम् मदः मानोऽवमानो सूया च माया हिंसा च मत्सरः रजप्रमाद क्षुन्निद्रा शत्रवस्त्वेव मादयः रजस्तम प्रकृतयः सत्त्वप्रकृतयः क्वचित् यावन्त्रिकाय रथमात्मवशोपकल्पम् धत्ते गरिष्ठचरणार्चनया निशातम् ज्ञानासि मच्युतबलो ददतस्तशत्रुः स्वाराज्यतुष्ट उपशान्त इदम् विजय्यात् नो चेत् प्रमत्तमसदिन्द्रियवाजिसूतानि त्वोत्पथम् निषयदस्य सुनिक्षिपन्ति ते दस्य वसहयसूतममुम् तमोऽन्धे संसारकूपौरुमृत्युभये क्षिपन्ति प्रवृत्तम् च निवृत्तम् च द्विविधम् कर्म वैदिकम् आवर्तेत प्रवृत्तेन निवृत्तेनाश्नुते मृतम् हिंस्रम् द्रव्यमयम् काम्यमग्निहोत्राद्यशान्तितम् दर्शश्च पूर्णमासश्च चातुर्मास्यम् पशुस्सुतः एतदिष्टम् प्रवृत्ताख्यम् हुतम् प्रहुतमेव च पूर्तम् सुरालया रामकूपाजीव्यादिलक्षणम् द्रव्यसूक्ष्मविपाकश्च धूमो रात्रिरपक्षयः अयनम् दक्षिणम् सोमो दर्श औषधिवीरुदः अन्नम् रेत इति क्ष्मेष पितृयानम् पुनर्भवः एकैकस्येनानुपूर्वम् भूत्वा भूत्वेह जायते निषेकादिश्मसानान्तैः संस्कारैः संस्कृतो द्विजः इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति इन्द्रियाणि मनस्यूर्मौ वाचि वैकारिकम् मनः वाचम् वर्णसमाम्नाये तमोङ्कारे स्वरे न्यसेत् ओङ्कारम् बिन्दौ नादेतम् तम् तु प्राणे महत्यमुम् अग्निसूर्यो दिवा प्राह्णः शुक्लो राकोत्तरम् स्वरात् विश्वस्य तैजसः प्राज्ञस्तुर्यात्मा समन्वयात् देवयानमिदम् प्राहुर्भूत्वा भूत्वानुपूर्वशः आत्मयाद्युपशान्तात्मा यात्मस्थो न निवर्तते य एते पितृदेवानामयने वेद निर्मिते शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति आदावन्ते जनानाम् सत् बहिरन्तः परावरम् ज्ञानम् ज्ञेयम् वचो वाच्यम् तमो ज्योतिस्त्वयम् स्वयम् आबाधितोऽपि आभासो यथा वस्तुतया स्मृतः दुर्घटत्वादैन्द्रियकम् तद्वदर्थविकल्पितम् क्षित्यादीनामिहार्थानाम् छायानकतमापि हि न सङ्घातो विकारोऽपि न प्रसङ्गान्वितो मृषा धातवो वयवित्वाच्च तन्मात्रावयवैर्विना न स्युर्यसत्यवयविन्यसन्नवयवोऽन्ततः स्यात् सादृश्यभ्रमस्तावत् विकल्पे सति वस्तुनः जाग्रत्स्वापौ यथा स्वप्ने तथा विधिनिषेधता भावाद्वैतम् क्रियाद्वैतम् द्रव्याद्वैतम् तथात्मनः वर्तयन् स्वानुभूत्येह त्रीन् स्वप्नान् धुनुते मुनिः कार्यकारणवस्त्वैक्यमर्शनम् पततन्तुवत् अवस्तुत्वात् विकल्पस्य भावाद्वैतम् तदुच्यते यद्ब्रह्मणि परे साक्षात् सर्वकर्मसमर्पणम् मनोवाक्तनुभिः पार्थ क्रियाद्वैतम् तदुच्यते आत्मजायासुतादीना मन्येषाम् सर्वदेहिनाम् यत् स्वार्थकामयोरैक्यम् द्रव्याद्वैतम् तदुच्यते यद् यस्य वा निषिद्धम् स्यात् येन यत्र यतो नृप सतेनेहेत कर्माणि नरो नान्यैरनापदि एतैरन्यैश्च वेदोक्तैर्वर्तमानः स्वकर्मभिः गृहेऽप्यस्य गतिम् यायात् राजंस्तद्भक्तिभाङ्नरः यथा हि योऽयम् नृपदेव दुस्त्यजादापद्गणादुत्तरतात्मनः प्रभोः यत्पादपङ्के रुहसेवया भवान्नहार्षीर्निर्जत दिग्गजः क्रतून् अहम् पुरा भवम् कश्चित् गन्धर्व उपबर्हणः नानातीते महाकल्पे गन्धर्वाणाम् सुसम्मतः रूपवेशलमाधुर्य सौगन्ध्यप्रियदर्शनः स्त्रीणाम् प्रियतमो नित्यम् मत्तस्तु पुरुलम्पटः एकदा देवसत्रे तु गन्धर्वाप्सरसाम् गणाः उपहूता विश्वसृग्भिर्हरिगाथोपगायने अहम् च गायंस्तद्विद्वान् स्त्रीभिः परिवृतो गतः ज्ञात्वा विश्वसृजस्तन्मे हेलनम् शेपुरोजसा या हि त्वम् शूद्रतामासु नष्टश्रीः कृतहेलनः तावद्दास्यामहम् जज्ञे तत्रापि ब्रह्मवादिनाम् शुश्रूषयानुषङ्गेण प्राप्तोऽहम् ब्रह्मपुत्रताम् धर्मस्य गृहमेधियो वर्णितः पापनाशनः गृहस्थो येन पदवी मञ्जसा न्यासिनाम् यात् यूयम् त्रिलोके बत भूरि भागा लोकम् पुनानामुनयोभियन्ति येषाम् गृहानावसतीति साक्षात् गूढम् परम् ब्रह्म मनुष्यलिङ्गम् स वा अयम् ब्रह्म महद्विमृग्यम् कैवल्यनिर्वाणसुखानुभूतिः प्रिय सुहृद्वः खलु मातुलेय आत्मारहणीयो विधिकृद्गुरुश्च न यस्य साक्षाद्भवपद्मजाभिः रूपम् धिया वस्तुतयोपवर्णितम् ಮೌನೇನ ಭಕ್ತ್ಯೋಪಶಮೇನ ಪೂಜಿತ ಪ್ರಸಿದ್ಧತಾಮೇಷ ಸಸಾತ್ವತಾಂ ಪತಿಃ. ಶ್ರೀಶುಕ ಉವಾಚ ಇತಿ ದೇವರ್ಷಿಣಾ ಪ್ರೋಕ್ತಂ ನಿಶಮ್ಯ ಭರತರ್ಷಭಃ ಪೂಜಯಾಮಾಸ ಸುಪ್ರೀತಃ ಕೃಷ್ಣಂ ಚ ಪ್ರೇಮ ವಿವ್ವಲಃ. ಕೃಷ್ಣ ಪಾರ್ಥ ಉಪಾಮಂತ್ರ್ಯ ಪೂಜಿತ ಪ್ರೇಯೌ ಮುನಿಃ. ಶುತ್ವಾ ಕೃಷ್ಣಂ ಪರಂ ಬ್ರಹ್ಮ ಪಾರ್ಥಃ ಪರಮ ವಿಸ್ಮಿತಃ. ಇತಿ ದಾಕ್ಷಾಯಣೀನಾಂ ತೇ ಪೃಥಗ್ವಂಶಃ ಪ್ರಕೀರ್ತಿತಾಃ ದೇವಾಸುರ ಮನುಷ್ಯಾದ್ಯ ಲೋಕಾ ಯತ್ರ ಚರಾಚರಾಃ. ಇತಿ ದಾಕ್ಷಾಯಣೀನಾಂ ತೇ ಪೃಥಗ್ವಂಶಃ ಪ್ರಕೀರ್ತಿತಾಃ ದೇವಾಸುರ ಮನುಷ್ಯಾದ್ಯ ಲೋಕಾ ಯತ್ರ ಚರಾಚರಾಃ. ಓಂ ಸ್ವಸ್ತಿ ಶ್ರೀಮದ್ಭಾಗವತೆ ಮಹಾಪುರಾಣೇ ವೈಯಾಸಿಕ್ಯಾಂ ಅಷ್ಟಾದಶ ಸಹಸ್ರ್ಯಾಂ ಪಾರಮಹಂಸ್ಯಾಂ ಸಂಹಿತಾಯಾಂ ಸಪ್ತಮಸ್ಕಂಧೇ ಪ್ರಹ್ಲಾದಾನುಚರಿತೆ ಯುಧಿಷ್ಠಿರನಾರದ ಸಂವಾದೆ ಸದಾಚಾರನಿರ್ಣಯೋ ನಾಮ ಪಂಚದಶೋಧ್ಯಾಯಃ. ಶ್ರೀಕೃಷ್ಣಾರ್ಪಣಮಸ್ತು. ನಮೋಸ್ತು ತೇ ಮಹಾಯೋಗಿನ್ ಪ್ರಪನ್ನ ಮನುಷಾಧಿಮಾಂ ಯಥಾ ತ್ವಚ್ಚರಣಾಂ ಭೋಜೇ ರತಿಃ ಸ್ಯಾದನಪಾಯಿನೀ.